वया इदग्ने अग्नयस्ते अन्येत्वे विश्वे अमृता आबादयन्ते वैश्वानरनाभिरसिक्षितेनां स्थोडे भजनां उपविद्ययन्थ मूर्धादिवो नाभिरग्निः पृथिव्या अथ भवदरतिरोदस्योः तन्त्वा देवासो जनयन्त देवं वैश्वानरज्योतिरिदार्याय आसोर्येन रश्मजो ध्रुवासो वैश्वानरे दधिरेग्नावसोनि या पर्वतेष्वोषधेष्वप्सु या मानुषेष्वसितस्य राजा बृहति इव सोनभेरोदसी गिरोहोता मनुष्यो न दक्षाः स्वर्वते सत्यशुष्माय पूर्वेर्वैश्वानरा जनतमाय जह्वेः दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्ररिचे महित्वम् राजा कृष्टे नामसि मानुषीणायुधा देवेभ्यो मरिवश्चकर्थ प्रणो महित्वं वृषभस्य वोचय्यं पौरवो वृत्रहणं सजन्ते वैश्वानरो दस्य मग्निर्जघन्वाँ अधो नोत्काष्ठा अभशंबरं भेद वैश्वानरो महिम्ना विश्वग्रष्टिर्भरद्वा जेषु यजतो विभावा शातवने जेषतिनीभिरग्निः पुरुणीथे जरते सोनृतावान्